इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः नरेन्द्रदत्त सेमवालः। आदौ मुख्य वार्ताः। जम्मू कश्मीरस्य विधानसभा निर्वाचनस्य द्वितीय चरणस्य कृते प्रख्यापितया अधिसूचनया सह एव नामांकन पत्राणां प्रस्तुतीकरणं समारब्धम्। गुजरात राज्ये जलप्लावनेन विनाशस्य अनन्तरं साहाय्योद्धारस्य कार्याणि द्रुतगत्या प्रचलन्ति। प्रधानमन्त्री नरेन्द्र मोदी मुख्यमन्त्रिणा भूपेन्द्र पटेलेन सह दूरभाष माध्यमेन संवादं कृत्वा यथासम्भवं साहाय्यं कर्तुं वचनं दत्तवान्। जम्मू कश्मीरस्य अवैध प्रवेश विरुद्ध अभियानयोः त्रयः आतंकिनः मारिताः। विशाखापत्तनम् गुप्तचर्या प्रकरणम् अधिकृत्य राष्ट्रिय अन्वेषण विभागः ह्यः सम्पूर्णे देशे अनेकेषु स्थानेषु अन्वेषणाभियानं प्राचलत्। अपि च सम्पूर्णे देशे अद्य क्रीडादिवसः आचर्यते। अथ वार्ताः विस्तरेण। भारतस्य निर्वाचन आयोगेन जम्मू कश्मीरस्य विधानसभा निर्वाचनस्य द्वितीय चरणस्य कृते अधिसूचना प्रख्यापिता अस्ति। अनेन सह एव नामांकन पत्राणां प्रस्तुतीकरणं समारब्धम्। नामांकन पत्राणां प्रस्तुतीकरणस्य अन्तिमतिथिः अग्रिम मासस्य पञ्चदिनांकः अस्ति। अग्रिम दिवसे च नामांकन पत्राणां परीक्षणं भविष्यति। सितम्बर मासस्य नवदिनांकपर्यन्तं नामांकनस्य प्रत्यावर्तनम् अनुमतम् अस्ति। अपि च सितम्बर मासस्य पञ्चविंशतिदिनांके मतदानं भविष्यति। अस्मिन् चरणे षण्मण्डलेषु षड्विंशति विधानसभाक्षेत्रेषु मतदानं भविष्यति। गान्दरबल, श्रीनगर, बडगाम, राजौरी, पुंछ, रियासी च एतानि मण्डलानि सन्ति यत्र मतदानम् आचरिष्यते। सर्वेभ्यः चरणेभ्यः परिणामस्य घोषणा अक्टूबर मासस्य चतुर्थदिनांके भविष्यति। गुजरातराज्ये जलप्लावनेन विनाशस्य अनन्तरं साहाय्योद्धारस्य कार्याणि द्रुतगत्या प्रचलन्ति। प्रधानमन्त्री नरेन्द्रमोदी अद्य मुख्यमन्त्री भूपेन्द्रपटेलेन सह दूरभाषमाध्यमेन संवादं कृत्वा जलप्लावनप्रभावितप्रदेशेषु साहाय्यकार्यस्य समीक्षणं कृतवान्। सः सामान्य जीवनस्य पुनः स्थापनार्थं जलप्लावितक्षेत्रेषु स्वच्छतां सार्वजनिक स्वास्थ्य कार्याणि च त्वरया कर्तुं राज्य प्रशासनं निर्देशितवान्। अत्रान्तरे भारतीय ऋतु विज्ञान विभागेन अद्य सौराष्ट्र कच्छ प्रदेशयोः अत्यधिक वृष्टेः पूर्वानुमानं व्यक्तीकृतमस्ति। जम्मू कश्मीरस्य कुपवाड़ा जनपदे नियंत्रण रेखायां द्वयोः भिन्नयोः अवैध प्रवेश विरुद्ध अभियानयोः पृथकयोः संघर्षद्वयोः न्यूनातिन्यूनं त्रयः आतंकिनः मारिताः। आतंकिनां संदेहास्पद गतिविधीन् विरुध्य प्रतिक्रियारूपेण सुरक्षाकर्मिभिः संयुक्त अभियानस्य आरम्भात् परं परस्पर संघर्षं समारब्धम्। जम्मू कश्मीर आरक्षिबलस्य आरक्षिमहानिदेशकः आर स्वेनः इत्येषः आकाशवाणीम् अकथयत् यत् तंगधार क्षेत्रे एकः आतंकी मारितः, माछिल क्षेत्रे च आतंकिनौ मारितौ। पाकिस्तानस्य नेतृत्वे जाते विशाखापत्तनम् गुप्तचर्या प्रकरणम् अधिकृत्य एकस्मिन् कठोरे कार्याचरणे राष्ट्रियान्वेषण विभागः यः सम्पूर्णे देशे अनेकेषु स्थानेषु अन्वेषणाभियानं प्राचालयत्। राष्ट्रिय अन्वेषण विभागः इत्यस्य अनुसारं गुजरात, कर्णाटक, केरल, तेलंगाना, उत्तर प्रदेश, बिहार, हरियाणा राज्याणां षोडश स्थानेषु व्यापकान्वेषणाभियानं प्राचालयत्। राष्ट्रियान्वेषण विभागस्य दलैः येषां परिसराणाम् अन्वेषणं कृतं तानि सर्वाणि संदिग्ध गतिविधिषु संप्रक्तानि आसन्। यहि भारते गुप्तचर्यायाः गतिविधिभ्यः पाकिस्तानेन धनं प्राप्तम् आसीत्। वित्तमन्त्रालयेन 650-19-शततमे प्रतिभूति अनुबन्ध विनियमन नियमे संशोधनं कृतम्, येन सार्वजनिक भारतीय उद्योग संस्थानैः गिफ्ट इंडियन फाइनेंशियल सिस्टम कोड इत्यस्य अन्तर्राष्ट्रिय विनिमयन प्रकल्पे प्रतिभूतयः प्रत्यक्षरूपेण सूचीबद्धं कर्तुं सौविध्यं प्राप्यते। वित्त मन्त्रालयस्य मतेन नूतनानि संशोधनानि भारतीयानां स्टार्टअप संस्थानानां कृते वैश्विक आर्थिकावसरान् सुलभतया प्रापयिष्यति। अनेन भारतीयानां लाभं भविष्यति। उद्योग संस्थानानि अन्येषु वैश्विक विपणिषु अपि स्वस्य उपस्थितिं संवर्धयितुं मार्गान् अन्वेषयिष्यन्ति। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्रीय पर्यावरण वन जलवायु परिवर्तन राज्यमंत्री कीर्ति वर्धन सिंह अद्य नवदिल्ल्यां एसोचेम पर्यावरण कार्बन सम्मेलनस्य उद्घाटनम् अकरोत्। सम्मेलनस्य विषयः सप्त्युत्तर द्विसहस्रतमाब्दं पर्यन्तं शुद्ध शून्य कार्बनोत्सर्जनं प्राप्तुं तन्त्रस्य विकासः इति। सम्मेलनं सम्बोधयन् श्री सिंहवर्यः अवदत् यत् वायुगुणस्य पर्यावरणस्य च परिवर्तनम् अधुना वैश्विक विषयः अस्ति, परन्तु देशम् अस्मात् प्रभावात् रक्षणाय सर्वकारः अनेकान् उपायान् कुर्वन् अस्ति। सः अवदत् यत् सर्वकारः सप्तत्युत्तर द्विसहस्रतमाब्दं पर्यन्तं शुद्ध शून्य कार्बनोत्सर्जनं संसाध्य प्रधानमन्त्री नरेन्द्रमोदी वर्यस्य विकसित भारतस्य संकल्पं साधयितुं कार्यं कुर्वन् अस्ति। श्री सिंहवर्य अवदत् यत् वैश्विकस्तरे वायुगुणं पर्यावरणं च प्रभावितं कुर्वतां समस्यानां समाधानम् अन्वेष्टुं वर्तमानकालस्य आवश्यकता अस्ति इति। जलसंकटस्य ग्रामीण भारते तस्य प्रभावस्य च उल्लेखं कुर्वन् श्री सिंहवर्य अवदत् यत् जल जीवन मिशन योजनायाः अन्तर्गतं निज समस्याः समाप्य देशस्य ग्रामीण भागेषु जनाः विशेषतः कृषकाः प्रसन्नाः सन्ति। श्री सिंहवर्यः अवदत् यत् देशे पर्यावरणस्य समस्यानां निवारणार्थं उद्योगानां हितधारकेभ्यः सर्वविधं आवश्यकं समर्थनं दातुं सर्वकारः प्रतिबद्धः अस्ति। सः अवदत् यत् सम्मेलनस्य परिणामेन भविष्यस्य नीतयः निर्धारिताः भविष्यन्ति। अस्माकं संवाददातृणा संसूचितं यत् एकदिवसीये सम्मेलने सम्पूर्णदेशात् उद्योगानां शोधस्य पर्यावरण संघटनानां च प्रतिनिधयः भागं भजन्ति। अमेरिकायां लेस्टिरिया इत्यस्य प्रकोपात् 50 अधिकाः रुग्णाः नवसंख्याकाः जनाः च मृताः इति ज्ञायते। रोगनियन्त्रण निवारण केन्द्रेण प्रकाशितस्य नवीनतमस्य विवरणस्य अनुसारं 18 राज्येषु अस्य प्रकोपस्य सूचना प्राप्ता। आहत्य 57 जनाः चिकित्सालये चिकित्सां प्राप्तवन्तः। 11-2000 केन्टलोप इत्यनेन सह सम्बद्धस्य लिस्टेरियोसिस इत्यस्य एषः बृहत्तमः प्रकोपः अस्ति। लिस्टेरिया इति एकः प्रत्यस्थायी जीवाणुः अस्ति, यः सुतलभागेषु यथा मांसखण्डेषु खाद्यपदार्थेषु शैत्यीकृत तापमाने च जीवितुं शक्नोति। अद्य प्रातः दिल्ली नगरे समीपस्थेषु क्षेत्रेषु च रिक्टर स्केल इत्यत्र 5.7 परिमितस्य तीव्रतायाः भूकम्पः अनुभूतः। राष्ट्रिय भूकम्प विज्ञान केन्द्रम् इत्यस्य अनुसारेण भूकम्पस्य केन्द्रबिन्दुः अफगानिस्तान देशे आसीत्। अधुना यावत् कस्यापि क्षतेः मृत्युर्वा सूचना न प्राप्ता। अद्य राष्ट्रिय क्रीडा दिवसः आचर्यते। प्रसिद्धः हॉकी क्रीडकः मेजर ध्यानचन्दः इत्यस्य जन्म जयन्त्याः स्मरणावसरे प्रतिवर्षम् अगस्त मासस्य 29 दिनांके अयम् दिवसः आचर्यते। अस्मिन् अवसरे वर्धापनानि प्रयच्छता प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् सर्वकारः क्रीडायाः समर्थने प्रतिबद्धः अस्ति, अपि च अधिकाधिकाः युवानः क्रीडितुं समर्थाः भवेयुः इति सुनिश्चितं करोति। युवा कार्य क्रीडा मन्त्री डॉ मनसुख मांडविया अद्य प्रातः नवदिल्ल्याः मेजर ध्यानचन्द राष्ट्रिय क्रीडांगणे मेजर ध्यानचन्दः इत्यस्मै पुष्पांजलिं समर्पितवान् इति वार्ताः।